सर्वेभ्यो नमः. अस्माकं विषय अद्यतन विषयः अस्ति भूतकालरूपाणि इति. वयं पूर्वमपि दृष्टवन्तः गीतासोपाने कथायां क्रोधपिशाचः इति कथायां भूतकालरूपं दृष्टवन्तः. किन्तु तत्र भूतकालस्य द्वैविध्यम् अस्ति. एकविधभूतकालमस्ति पठितवान् गतवान् इति. तत्र वयं जानीमः गतवान् गतवती पठितवान् पठितवती तत् भूतकालं सूचयति, किन्तु तत् क्रियापदं नास्ति. तद् विशेषणं भवति कर्तृपदस्य. रामः गतवान् सीता गतवती इति भवति क्रियापदं. लिङ्गभेदं न करोति इति कृत्वा तत् क्रियापदं नास्ति इति जानीमः. क्रियापदरूपमस्ति लङ्लकारः इति यद् वदामः. तत्र पठितवान् इति स्थाने सुरेशः पठितवान् इति स्थाने सुरेशः अपठत्, श्यामः अपश्यत्, सः अगच्छत् इति वदामः. तत्र गीतासोपाने पेज् 82 मध्ये एतद् रूपं दत्तमस्ति. तत्र रूपभेदः अस्ति. परस्मैपदी धातूनाम् एकं रूपम्, अन्यत् रूपम् आत्मनेपदी धातूनाम्. अतः प्रथमतया परस्मैपदी धातूनां रूपम् एकवारं पुनः स्मरणं कुर्मः. तदनन्तरं आत्मनेपदी धातूनां रूपमपि एकवारं पुनः स्मरणं कुर्मः. तदनन्तरं यत् करपत्रम् अहं लिङ्क् प्रेषितवान् सर्वे प्राप्तवन्तः इति मन्ये. तत्र एकम् कृत्वा अभ्यासं कुर्मः. तत्र स्वरूपमहोदयस्य करपत्रेण बहु लाभः भवति इति कृत्वा तदेव अद्यतनविषयः अस्ति. तत् करपत्रं सम्पूर्णतया कुर्मः इति. अस्तु, इदानीं प्रथमतया नरेश महोदय तत्र पठति इति लङ्लकाररूपं किम् इति नवरूपाणि वदतु महोदय.
आम् महोदय. अपठत्, अपठताम्, अपठन्, अपठः, अपठम्,
अपठतम्, अपठतम्,
अपठतम्, अपठत, अपठम्, अपठाव, अपठाम.
हा इति. हा गीताञ्जलि भगिनि तदेव सः इति उपयुज्य वदतु भगिनि. सः अपठत्.
आम् महोदय. सः अपठत्, तौ अपठताम्, ते अपठन्, त्वम् अपठः, युवाम् अपठतम्, यूयम् अपठत, अहम् अपठम्, आवाम् अपठाव,
वयम्
अपठाम.
हा समीचीनम्. इदानीं सन्ध्या भगिनी तत्र कोष्टके अचलत् इति दत्तमस्ति, पश्यति वा तत्र पेज् 82 मध्ये. हा तत्र सः इति न, सा अचलत्, ते ताः इति वदतु भगिनि.
सा अचलत्, ते अचलताम्, ताः अचलन्, त्वम् अचलः,
युवाम्
अचलतम्, यूयम् अचलत, अहम् अचलम्, आवाम् अचलाव, वयम् अचलाम.
हा समीचीनं भगिनि. हा अस्तु रघुपति महोदय. इदानीम् आत्मनेपदी धातूनां तत्र शोभते इति, तत्र भूतकालरूपं किमस्ति?
शोभते. एकनिमिषं महोदय.
83 पेज् मध्ये तत्रैव अस्ति.
अस्तु अस्तु महोदय. शोभते, अशोभत, अशोभत न अशोभत अशो अशोभेताम् अशोभन्त अशोभताः अशोभेत् अशोभेताम् अशोभध्वम् अशोभे अवो अशोभावहि अशोभामहि.
हा इति समीचीनं महोदय. इदानीं नरेश महोदय तत्र एव शोभते इति एव तत्र सः इति उपयोज्य वदतु महोदय. सः अशोभत इति
सः अशोभत तौ अशोभेताम् ते अशोभन्त त्वम् अशोभथाः युवाम् अशोभेथाम् यूयम् अशोभध्वम् अहम् अशोभे युवाम् अवाम् अशोभावहि वयम् अशोभामहि.
हा समीचीनम्. हा इदानीं गीतांजलि भगिनी तत्र पुटसङ्ख्या 83 मध्ये अभाषत इति अस्ति तत्र भवान् अभाषत इति तत् करोतु भगिनि.
अस्तु महोदय. भवान् अभाषत भवन्तौ अभाषेतां भवन्तः अभाषन्त त्वम् अभाषथाः युवाम् अभाषेथां यूयम् अभाषध्वम् अहम् अभाषे आवाम् अभाषावहि वयम् अभाषामहि.
हा समीचीनम्. हा इदानीं सन्ध्या भगिनि तत्र भवती अभाषत इति करोतु भगिनि. गीताञ्जलि भगिनि भवान् इति कृतवती भवती भवती अभाषत इति.
आम् भवती अभाषत भवत् भवत्यो भवत्यः
भवती भवत्यो भवत्यः समीचीनम्.
आम् भवत्यौ अभाषेतां भवत्यः अभाषन्त त्वम् अभाषताः युवाम् अभाषेथां यूयम् अभाषध्वम् अहम् अभाषे आवाम् अभाषावहि वयम् अभाषामहि.
हा समीचीनं भगिनि. अस्तु हा इदानीं पुनस्मरणं जातम् इति मन्ये. तत्र परस्मैपदी धातूनाम् उदाहरणमस्ति अचलत् इति साधारणरूपम् अपि आत्मनेपदी धातूनां लङ्लकारस्य साधारणरूपम् अभाषत इति कोष्टकं यदस्ति तदेव अस्ति. अस्तु एतत् स्वीकृत्य मनसि स्थापयित्वा वयं यदस्ति करपत्रे तद् कर्तुं शक्नुमः इति मन्ये. अस्तु नरेश महोदय आरम्भं करोति वा करपत्रे लङ्लकारस्य.
परस्मैपदी धातवः उदाहरणं दृष्ट्वा लकारपरिवर्तनं करोतु. बालकः खादति बालकः अखादत् माता चलति माता अचलत्.
हा माता अचलत्. अस्तु हा समीचीनम्. इदानीं रघुपति महोदय तत्र माता अचलत् इति अस्ति तत्र द्विवचने बहुवचने किं किं भवति? रघुपतिमहोदय अस्ति वा? अस्तु गीताञ्जलि भगिनी किं भवति? अस्तु अस्तु रघुपतिमहोदय वदतु.
म्यूट् मध्ये आसम्. अस्तु माता अचलत् मातरौ अचलतां मातरः अचलन्
मातरः अचलन् समीचीनम्. हा इदानीम् अग्रिमं करोतु महोदय.
हा शिशवः शिशवः शिशुः शिशुः अक्रीडत् शिशौ शिशौ अक्रीडताम्
सोरि शिशुः शिशुः शिशुः
शिशुः
गुरुः गुरवः
सारि सारि अस्तु अस्तु महोदय गुरु गुरवः अस्तु शिशुः अक्रीडत् शिशु अक्रीडतां शिशवः अक्रीडन्
समीचीनं महोदय अस्तु अग्रे गीताञ्जलि भगिनी
नर्तकी नृत्यति
प्रथमति एकवचनस्य तस्य परिवर्तनं करोतु भगिनि
नर्तकी ओ नर्तकी
अनृत्यत् समीचीनं तत्र लङ्लकाररूपं कथं कुर्मः प्रथमतः अकारं स्थापयामः तदनन्तरं टी स्थाने केवलं त अथवा इति भवति खलु साधारणरूपम् अतः नृत्यति इति स्थाने नृत्यत् समीचीनं भगिनि इदानीं द्विवचने बहुवचने किं भवति इति वदति वा
नर्तकी अनृत्यत् नर्तक्यौ अनृत्यताम् नर्तक्यः अनृत्यन्
समीचीनं भगिनि समीचीनं भानुचेतनी महोदय नमस्कारः
हरि ओं महोदय
हरि ओं सुप्रभातं अस्तु सन्ध्या भगिनी अग्रिमम् अध्यापकः इति
अध्यापकः अवदत् अध्यापकौ अवदताम् अध्यापकाः अवदत्
समीचीनमस्ति भगिनि समीचीनं नूतनतया अन्य कोऽपि कः आगतवान्
नमस्कारः महोदय अहं हरि
महोदय नमस्कारः अद्य वदति वा महोदय
महोदय नीड् टु टेक् मै नोट्बुक् औट्
अस्तु अस्तु तत्र करपत्रं प्राप्तानन्तरं वदतु अस्तु 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 बालचित्रि महोदय अग्रिमं करोति वा वयं करपत्रे स्मः पानचित्रि महोदय
क्षम्यतां महोदय अहं वदामि महोदय किं
एकवारं अस्तु अस्तु विद्यार्थी तिष्ठति इति तस्य परिवर्तनं भूतकाल लङ्लकाररूपं विद्यार्थी तिष्ठति
विद्यार्थी तिष्ठति विद्यार्थी
अतिष्ठत् इदानीं समीचीनम् इदानीं द्विवचने बहुवचने वदति वा
विद्यार्थौ
अस्तु तत्र प्रायशः आत्मानौ तत्र विद्यार्थी इति नकारान्तपदम् अस्ति अस्तु इदानीं रूपं प्राप्तम् अस्तु महोदय वदतु विद्यार्थिनौ
विद्यार्थिनौ तिष्ठताम्
अतिष्ठतां समीचीनं
तिष्ठताम् विद्यार्थिनः
अतिष्ठन् समीचीनं महोदय अस्तु अग्रे नरेश महोदय
आं महोदय कर्मकरः स्मरति कर्मकरः अस्मरत् कर्मकरौ अस्मरताम् कर्मकराः नर्तकराः अस्मरन्
मातरः
कर्मकरः कर्मकरौ कर्मकराः
इति मन्ये महोदय तत्र करः कर्मकरः अन्यदस्ति कर्मकारः अपि तत्र भेदः अस्ति इति मन्ये महोदय स्पोकन् संस्कृतमध्ये पश्यतु भेदः अस्ति इति कः भेदः इति विस्मृतवान् किन्तु भेदः अस्ति वदतु भगिनी गीताञ्जलि भगिनी
अहम् इति वदामि महोदय किं भेदः
कः भेदः अस्तु अस्तु
अष्टवाक्य अहं करोमि महोदय
अस्तु महोदय अस्तु भवान् करोतु तदनन्तरं गीताञ्जलि भगिनी वदतु अस्तु वदतु महोदय हरि महोदय
कुक्कुरः अपिबत् कुक्कुरौ अपिबतां कुक्कुरः अपिबन्
समीचीनं समीचीनं महोदय गीताञ्जलि भगिनी वदति वा इदानीं
मित्रम् अहसत्
न भवती उक्तवती कर्मकरः कर्मकारः भेदः जानाति वा
अहं न जानामि
ओ अस्तु 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 अहं विस्मृतवान् अहं चिन्तितवान् भवती वदति इति अस्तु 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 भवान् अस्तु भगिनि किन्तु भेदः अस्ति स्पोकन् संस्कृत् मध्ये प्रायशः दत्तमस्ति इति मन्ये अस्तु अस्तु
किमपि भेदः नास्ति अत्र दृष्टवान् वर्कर् इति द्वौ अपि वर्कर् इति दत्तमस्ति
अस्ति वा अस्तु अस्तु किन्तु कुत्रापि मया दृष्टं कर्मकरः
वदामि कर्म कर्माकरः इत् अस्ति कर्मकारः नास्ति अत्र कर्माकरः अस्ति महोदय न जानामि अत्र कर्माकरः अस्ति कर्मकरः एक अस्ति कर्माकरः एक अस्ति कर्मकारः
नास्ति अतः किञ्चित् भेदः अस्ति किन्तु न स्मरामि
न महोदय अस्ति अस्ति अहं पश्यामि कर्म अस्तु महोदय तत्र कर्माकराय अपि कर्माकर एव सूचयते मुद्रणदोषः अस्ति मुद्रणे भवेत् कर्माकर वर्कर् एव अस्ति महोदय
अस्तु अस्तु दृष्ट्वा पश्यामः दृष्ट्वा वदामः अस्तु अस्तु अग्रे सन्ध्या भगिनी अग्रिमं करोति वा मित्रम् इति
मित्रम्
अहसत् मित्रम् अहसत् समीचीनम्
मित्रं मित्रे मित्राणि मित्रे अहसतां मित्राणि अहसन्
मित्राणि अहसन् समीचीनं भगिनि अस्तु अग्रे गीताञ्जलि भगिनि
दुर्जनः अचोरयत् दुर्जनौ अचोरयतां दुर्जनाः अचोरयन्
अचोरयन् समीचीनं भगिनि नरेश् महोदय अग्रे
महोदय पुरुषः पुरुषाः नयन्ति पुरुषः नयति पुरुषः अनयत् पुरुषौ अनयताम्
पुरुषाः अनयन्
अनयन् समीचीनं महोदय. अस्तु अग्रे रघुपति महोदय. महोदय न श्रूयते.
हा म्यूट् मध्ये आसम् महोदय. पत्रं पत्रं पत्रौ पत्राणि इति अस्तु. पत्रम् अपतत् पत्रौ
क्षम्यतां पत्रं पत्रे पत्रं
सोरि महोदय पत्र पत्रे अपततां पत्राणि अपतन्ति
अपतन्
सोरि पत्राणि अपतन् अपतन्
अपतन् हा समीचीनम् अस्तु. भानुचेतनी महोदय अग्रिमं.
त्रयोदश उदाहरणं पुष्पम् अशुष्यत् पुष्पे अशुष्यतां पुष्पाणि अशुष्यन्
अशुष्यन् समीचीनं हा अस्तु. अग्रे हरि महोदय.
आं महोदय. गायिके गायतः गायिका गाय गायिका
तत्र वर्तमानक हा हा अगायत अगायत्
गायत गाय
अगायत् अगायत् केवलम् अगायत् अगायत्
गायिका अगायत् समीचीनं महोदय. गायिका अगायत् गायिके अगायतां गायिकाः अगायन्
अगायन् समीचीनं महोदय. अस्तु अग्रे हा सन्ध्या भगिनी अग्रिमं.
सहायकाः
सहायकः
अपश्चत्
अपचन् अपचन् अपचत्
अपचत् सहायकौ अपचतां सहायकाः अपचन्
हा समीचीनं भगिनी. अस्तु नरेश महोदय अग्रिमं.
छात्राः पठन्ति छात्रः अपठत् छात्रौ अपठतां छात्राः अपठन्
समीचीनं. गीतांजलि भगिनी.
वैद्याः चिन्तयन्ति वैद्यः अचिन्तयत् वैद्यौ अचिन्तयताम्
अचिन्त्य अचिन्तय हा समीचीनं भगिनि हा हा
वैद्यौ अचिन्तयताम् वैद्याः अचिन्तयन्
अचिन्तयन् समीचीनं भगिनि. अस्तु भानुचेतनी महोदय अग्रिमम्.
महोदय
दूतौ
दूतौ
हा दूतौ सूचयतः
दूतौ सूचयतः दूतः असूचयत् दूतौ असूचयताम्
असूचयताम्
असूचयताम् दूताः असूचयन्
हा समीचीनं महोदय. रघुपति महोदय अग्रे.
अस्तु हरिण हरिणः हरिणः हरिणौ हरिणाः अस्ति हरिणः अधावत् हरिणौ अधावतां हरिणाः सोरि हरिणे हरिणा हरि अस्तु महोदय हरिणौ अधावतां हरिणाः अधावन्
अधावन् हा समीचीनं महोदय. हा अधावन् इति अस्ति. हरि महोदय अग्रे.
आरक्षकौ रक्षतः आरक्षकः अरक्षत् आरक्षकौ अरक्षताम् आरक्षकाः अरक्षन्
अरक्षन् समीचीनं महोदय. अस्तु अग्रे नरेश महोदय.
अहं गच्छामि. अहम् अगच्छत् अहम् अगच्छम् आवाम् अगच्छाव वयम् अगच्छाम.
हा समीचीनं. सन्ध्या भगिनी अग्रे.
वयं पश्यामः. अहम् अपश्यम् वयम् अपश्याव वयम् अपश्याम.
न न भगिनी क्रियापदं तु समीचीनमस्ति किन्तु अहम् आवां वयम् किन्तु क्रियापदं समीचीनम् आसीत्. अस्तु पुनरेकवारं वदतु भगिनि.
अहम् अपश्यम् आवाम् अपश्याव वयम् अपश्याम.
हा समीचीनं भगिनि. अस्तु अग्रे गीताञ्जलि भगिनि.
अहं तिष्ठामि. अहम् अतिष्ठम् आवाम् अतिष्ठाव वयम् अतिष्ठाम.
हा इति समीचीनं. हा अस्तु अग्रे रघुपति महोदय.
श्रुणोति.
श्रूयते महोदय श्रूयते.
अहम् अलिकम् आवाम् अलिकाव वयम् अलिकाम अलिखाम.
समीचीनं महोदय. हरि महोदय अग्रे.
वयं पृच्छामः. अहम् अपृच्छम् अहम् अपृच्छम् आवाम् अपृच्छाव वयम् अपृच्छाम.
तत्र अस्थापनीयमस्ति तदनन्तरं विसर्गः न वदनीयम् अथवा वक्तव्यं तावदेव उत्तमपुरुषे. तत्र तत्र पठामि इति अस्ति पठामि इति अस्ति तत्र चलामि तत्र ईकारः गच्छति तत्र चलति किं भवति अचलत् अकारः आगच्छति ईकारः गच्छति अन्ते अचलति. हा चलति इति चल इत् प्लस् इ इति अस्ति अन्ते अन्तिमवर्णः इकारः अस्ति तद् गच्छति पूर्वम् अकारः आगच्छति अ प्लस् चलत् अत्र चलामि इति अस्ति तत्र आ दीर्घ अकारः गच्छति चल आ इति यदस्ति तद् गच्छति चलमि तत्र इकारः अपि गच्छति चलत् चलं तदनन्तरम् अ अकारः आगच्छति. बालचेतनी महोदय अग्रिमम्. अहं पठामि इति
अहं पठामि अहं पठामि तत् लङ्लकारे रूपम् अस्ति. अहम् अपठम्
अपठम्
आवाम् आवाम् अपठाव वयम् अपठाव
अपठा वयम् अपठाम
अपठाम.
एकवारं वकारः आवां तदनन्तरं वयम् इति मकारः.
महोदय पुनरेकवारं
अपठम्
अहम् अपठम् आवाम् अपठाव वयम् अपठाम
हा इति समीचीनं महोदय. अस्तु अग्रे हा सन्ध्या भगिनी अग्रिमं करोति वा. अस्तु भगिनि अस्तु नरेश महोदय अग्रिमं करोतु. करोति वा एकनिमिषं महोदय एकनिमिषं महोदय. सन्ध्या भगिनि करोति वा.
अस्तु त्वं धावसि
तत्र अहं वदामि भगिनि एक एकनिमिष तत्र चलसि इति स्थाने अन्ते सि इति अस्ति तद् मा वदतु. विसर्गः तत्र भवति अपि अकारः पूर्वं चलसि इति स्थाने अचलः इति भवति. अधावः समीचीनम्.
त्वम् अधावः युवाम् अधावतम् यूयम् अधावत.
हा समीचीनं भवती जानाति खलु. अस्तु अस्तु नरेश महोदय अग्रे.
वयं न कृतवान् 27 वयं दर्शयामः.
ओ अस्तु महोदय अस्तु 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 तत् करोतु महोदय. अस्तु धन्यवादः.
अहं दर्शयम् आवां दर्शयाव वयं दर्शयाम.
हा समीचीनं महोदय. अस्तु गीतांजलि भगिनी अग्रे इदानीं 30 हा युवां चिन्तयतः तदपि न कृतवन्तः वा. ओ अस्तु 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 करोतु भगिनि. हा
महोदय भवान् कूर्दन्ति.
अस्तु 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 हा 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 अस्तु हा गच्छावः.
आवां पाठयावः अहम् अपाठयम् आवाम् अपाठयाव वयम् अपाठयाम.
हा समीचीनम्. अस्तु हा इदानीं रघुपति महोदय इदानीं किं 30 इति मन्ये. हा
युवां चिन्तयतः.
हा न श्रूयते महोदय.
श्रूयते वा.
इदानीं श्रूयते इदानीं
श्रूयते मोबैल् मध्ये किञ्चित्
वदा.
कुत्र कुत्र महोदय. धावसि धावसि
तदनन्तरं.
ओके चिन्तयतः. ओके युवाम् ओके सोरि मध्यमपुरुषः अस्ति युवां त्वं अचिन्तयः
त्वम् अचिन्तयः युवां
न श्रूयते
महोदय. रघुपतिमहोदय अस्ति वा. अस्तु भानुचेतनी महोदय करोति वा.
आं महोदय.
हा
युवां चिन्तयतः तस्य रूपं लङ्लकारे अस्ति. प्रथमपुरुष मध्यमपुरुष एकवचनं. त्वं चिन्तयः क्षम्यतां महोदय. त्वम् अचिन्तयः युवाम् अचिन्त्यतम्
अचिन्तयतम्
अचिन्तयत अचिन्तयत पुनरेकवारं महोदय त्वं चिन्तयः
त्वम् अचिन्तयः अकारः अकारः आवश्यकं त्वम् अचिन्तयः
त्वम् अचिन्तयः युवाम् अचिन्तयताम्
अचिन्तयतम् अचिन्तयताम् अचिन्तयतम्
ओ यकारः पूर्णम् उच्चारणीयम् अचिन्तयतम्
इदानीं समीचीनं महोदय
अचिन्तयतम् अचिन्तय अचिन्तयत यूयम् अचिन्तयत
इदानीं समीचीनमस्ति महोदय तत् चिन्त्यति इति नास्ति चिन्तयति इति अस्ति अतः चिन्तयति इति लट्लकररूपं चिन्तयति इति अस्ति यकारः पूर्णतया अस्ति तत्र तकारः अपि चिन्तयति इति अस्ति अस्तु समीचीनम् एव महोदय अस्तु हरि महोदय अग्रे
यूयं वपथ त्वं त्वं अवप
अवपः तकारः नास्ति
तकारः नास्ति त्वं अवपः युवाम् अवपतम् यूयम् अवपत
समीचीनं समीचीनं महोदय अस्तु अग्रे सन्ध्या भगिनी
इत्युक्ते
sow atva seed to put seeds in the ground to sow रघुपति महोदय भवान् वदतु तदनन्तरं सन्ध्या भगिनी वदति
अस्तु महोदय एकनिमिषं महोदय याचावः इति परस्मैपदीयो महोदय
एतावत् सर्वं परस्मैपदी
परस्मे अस्तु अस्तु महोदय याचावः ओके उत्तमपुरुषः अस्ति अहम् अयाचम् आवाम् अयाचावः सोरि आवाम् अयाचाव अयाचाव
विसर्गः
अयाचाव वयम् अयाचाम अयाचाम
अयाचाम समीचीनम् अस्तु इदानीं सन्ध्या भगिनी उत्तमपुरुषः
अहं गणयामि अहम् अगणयम् आवाम् अगणयाव वयम् अगणयाम
पश्यतु तत्र द्विवचने बहुवचने बहु सुलभः अस्ति खलु केवलं किं करणीयम् सन्ध्या भगिनी किं करणीयं द्विवचने बहुवचने उत्तमपुरुषे क्रियापदस्य परिवर्तनं कथं करणीयं किं करणीयं तत्र लङ्लकारम् आवश्यकं चेत् अन्ते किमस्ति
अन्ते मध्यमपुरुष
न न न केवलं केवलम् उत्तमपुरुषे द्विवचने गणयावः इति अस्ति किन्तु लङ्लकारे किं भवति अगणयाव अकारः पूर्वं वदनीय वक्तव्यं विसर्गः न वक्तव्यं खलु तावदेव परिवर्तनं खलु
पुनः वदतु
लट्लकारे गणयावः इति अस्ति किन्तु लङ्लकाररूपं भूतकालं रूपं परिवर्तनं करणीयं चेत् किं करणीयम् गणयावः इति प्रथमतया गणयाव विसर्गः न वक्तव्यं, तदनन्तरम् अकारः स्थापनीयम् अगणयाव खलु
अकार सर्वत्र परन्तु
केवलं विसर्गः विसर्गः न वक्तव्यं तावदेव अस्ति खलु भगिनि, अतः सुलभः अस्ति द्विवचनरूपम् अपि बहुवचनरूपम् उत्तमपुरुषरूपम्। अस्तु अग्रे नरेश महोदय।
वयं वदामः अहम् अवदा अवधम् आवाम् अवदाव वयम् अवदाम।
हा समीचीनम्। अस्तु गीताञ्जलि भगिनी अग्रे।
आवां रचयाव अहम् अरचयम् आवाम् अरचयाव वयम् अरचयाम।
हा इति अस्ति। अस्तु हा इदानीम् अग्रिमभागः तत्र गच्छामः, तत्र उदाहरणं दृष्ट्वा भानुचेतनी महोदय तत्र उदाहरणम् एकवारं पठतु महोदय, उदाहरणद्वयमस्ति अग्रिमभागे।
आं महोदय। पुरुषः उपविशति, पुरुषः उपाविशत्।
अग्रिमं
तत्र
तत्र उपविशति अपि विस्मरति, तत्र किमस्ति अन्य कोऽपि वदति वा कीदृशक्रियापदमस्ति तत्?
विसर्ग सारी उपसर्ग अस्ति।
उपसर्ग अस्ति महोदय, अतः उपसर्गः यदि क्रियापदे उपसर्ग अस्ति तदा किं करणीयम् इत्युक्ते प्रथमतया उपसर्गः निष्कास्यतु, नास्ति इति चिन्तयतु प्रथमतया। तत्र विस्मरति इति स्थाने किं करणीयं? स्मरति इति, वि प्लस् वि योगः स्मरति, वि इति उपसर्गः अस्ति, तत्र प्रथमतया स्मरति। हा तत्र उपविशति, तत्र विशति इति धातु क्रियापदमस्ति, उप प्लस् विशति, तत्र उप एव उपसर्गः अस्ति, उपसर्ग इत्युक्ते प्रिफिक्स् इति। हा तत्र विशति इति किं भवति? विशति इति लट्लकाररूपम् अस्ति, वर्तमानकालरूपं, भूतकालरूपम् आवश्यकं चेत् किं कुर्मः? पठति इति अस्ति चेत् अपठत्, विशति इति अस्ति चेत् अविशत्, अविशत् इति भवेत्। तदनन्तरं पुनः उपसर्ग स्थापनीयमस्ति। इदानीम् उप प्लस् विशति आसीत्, उप इति विस्मरामः, नास्ति इति चिन्तयामः, विशति इति किं भवति? अविशत् इति भवति। तदनन्तरम् उप इति पुनः स्थापयामः, उप प्लस् अविशत् उपाविशत् इति सवर्णदीर्घसन्धि सन्धि भवति तत्र। द्वितीये उदाहरणे किं भवति? वि प्लस् स्मरति इति अस्ति, तत्र वि इति उपसर्गः, हा स्मरति किं भवति? अस्मरत्। तदनन्तरं वि प्लस् अस्मरत् वि योग अस्मरत् व्यस्मरत् इति, यण् सन्धि इति वदामः, हा व्यस्मरत् इति भवति। हा एतदेव तत्र तत्र कार्यं किम् अस्ति? उपसर्ग अस्ति चेत् उपसर्गः निष्कास्यतु, क्रियापदस्य परिवर्तनं करोतु, उपसर्गरहितक्रियापदस्य परिवर्तनं करोतु, लङ्लकाररूपं स्वीकरोतु, तदनन्तरं पुनः उपसर्गः स्थापयतु। हा इदानीं हा तत्र सन्धि वृद्धि बहु कार्यः भवति, किन्तु साधारणरीत्या वदामः अत्र। अस्तु तत्र पुरुषः उपविशति, तत्र पुरुषः उपाविशत् इति अस्ति भानुचेतनि महोदय, तत्र द्विवचने बहुवचने किं भवति इति एकवारं वदति वा
महोदय?
उपाविशन् हा, इदानीं पुरुषः उपविशत्, तस्य वाक्यस्य द्विवचन बहुवचनरूपम् एकवारं वदतु।
आं महोदय, पुरुषः उपविशति, पुरुषः उपाविशत्, पुरुषौ उपाविशताम्, पुरुषाः उपाविशन्।
हा इति अस्ति। हा तत्र तादृश एव बालिका विस्मरति इति,
बालिका विस्मरति, तस्य लङ्लकाररूपं बालिका व्यस्मरत्, बालिके व्यस्मरताम्, बालिकाः व्यस्मरन्।
व्यस्मरन् इति। हा अत्र सन्धि किं भवति, तत्र सन्धि अस्ति, सन्धेः नियमाः काः इति, नियमाः के इति, तद् इदानीम् अस्माकं विषयः नास्ति। एतत् सन्धि भवति इति तावदेव अत्र आवश्यकम् अस्ति। हा अस्तु, अग्रे तत्र अग्रिम उदाहरणं यदस्ति तत्र प्रथमतया वक्तव्यम् उपसर्गः कः इति। अस्तु, गीताञ्जलि भगिनी अग्रिमं माता इति।
माता आनयति,
तत्र उपसर्गः किम् अस्ति?
आ।
अस्तु, इदानीम् उपसर्गरहित क्रियापदं किम् अस्ति?
माता नयति।
हा, नयति इति क्रियापदम् अस्ति। अस्तु, नयति इति लङ्लकाररूपं किम्?
लङ्लकार माता अनयत्।
हा इदानीं हा पुनः उपसर्गः स्थापयतु,
माता आनयत्।
हा, अकारः प्लस् आनयत्, आ योगः अनयत्, पुनः आनयत् इति भवति। अस्तु, तत्र द्विवचने आनयत् द्विवचने किं भवति?
मातरौ आनयताम्, मातरः आनयन्।
आनयन्, समीचीनं भगिनि। हा अस्तु, नरेश महोदय अग्रिमम्।
महोदय, कर्मकराः प्रक्षालयन्ति, कर्मकर
इदानीं महोदय प्रथमतया प्रक्षालयन्ति इति, तत्र उपसर्गः कः?
उपसर्गः
अस्ति, प्र इति उपसर्गः अस्ति। अस्तु, अतः क्षालयति इति क्रियापदम् अस्ति। क्षालयति इति क्रियापदस्य लङ्लकाररूपं किम् अस्ति?
अक्षालयत्,
अक्षालयत् इति अस्ति। अस्तु, इदानीं पुनः प्र इति, प्रयोगः अक्षालयत् किं भवति?
प्राक्षालयति।
हा, प्राक्षालयत्। हा,
प्राक्षालयत्।
हा, इदानीं कर्मकरः प्राक्षालयत्,
कर्मकरौ प्राक्षालयताम्, कर्मकराः प्राक्षालयन्
इति भवति। हा, समीचीनं महोदय। हा, तत्र प्रक्षालयन् इति कर्मकराः प्रक्षालयन् इति नास्ति, प्राक्षालयन् इति भवति।
प्राक्षालयन्।
हा, तत्र अकारः पूर्वं प्रथमतया भवति इति सः नियमः, अत्र अनृत्यत्, अवदत्, अतिष्ठत्, अस्मरत्, तत्र उपसर्गः नास्ति। यदा उपसर्गः नास्ति तत्र तथा अकारः लङ्लकारे भवति, किन्तु उपसर्गः अस्ति चेत् अकारः मध्ये भवति, अतः तत्र सन्धि किञ्चित् परिवर्तनं भवति। अस्तु, अग्रिमं हा रघुपति महोदय, भवान् एव करोति एतद्। हा,
अहम् आह्वयामि, आह्वयामि, ओके, अस्तु, आह्वयामि वा?
तत्र ह्वे इति
आह्वयामि अस्तु अहम् आह्वयामि अतः अहम् ओके अस्तु अहम् आह्वयम्
तत्र उपसर्गः कः इति वदतु उपसर्गरहितक्रियापदं वदतु
अस्तु महोदय आह्वयम् आह्वयम् आह्वयामि आह्वयम् आह्वयम् इति भवति
तत्र आह्वयति आह्वयति इति चिन्तयामः
आह्वयति सारि सारि आह्वयति
आह्वयति तत्र उपसर्गः कः
आकार
दीर्घ आकारः
दीर्घाकारः अस्ति
आ इति उपसर्गः अस्ति उपसर्गरहितक्रियापदं किम् अस्ति
अतः आह्वयति इति
इति प्रथमपुरुषरूपं
प्रथमपुरुषरूपम्
इदानीम् उत्तमपुरुषरूपम् आह्वयम्
आह्वयम् अस्ति
आह्वयम् इति उत्तमपुरुषरूपं पुनः
आकार योजयित्वा आकार आकार एव अवशिष्यते आह्वय आह्वयम्
आह्वयम् आयोगः आह्वयम् आह्वयम् आह्वयम्
आह्वयम् आह्वयाम् आह्वयाम्
इदानीं द्विवचने किम्
आह्वय एकनिमिषम् आनयति अनयत् ओके आह्वयामः महोदय अत्र दीर्घ अस्ति वा
दीर्घ अस्ति दीर्घ अस्ति
आह्वयाम
आह्वयम् आह्वयम्
आह्वयं वा अस्तु आह्वयम् आह्वयम् आवाम् आह्वयाव वयम् आह्वयाम
तत्र महोदय पश्यतु भवतः प्रश्नः आसीत् तत्र दीर्घ आकारः अस्ति किन्तु पठामि इति स्थाने अपि अपठम् एव अस्ति
न न पठामि अस्तु अस्तु ओके ओके अस्तु
हा तत्र आह्वयामि इति किन्तु आह्वयति इति चिन्तयतु
आह्वयति आह्वयामि आह्वयामि अस्तु अस्तु महोदय किमपि आह्वयामि महोदय एकनिमिष अचलम् पठामि अपठम् अस्तु अस्तु महोदय ह्रस्वाय समीचीनम्
अस्तु 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 तत्र उपसर्गः अकारः एव अस्ति चेत् किञ्चित् भ्रमः भवति किमर्थं चेत् लङ्लकारः यत् कुर्मः तत्रापि परिवर्तने अकारः नूतनतया आगच्छति उपसर्गः अपि अकारः अस्ति अतः सन्धि कृत्वा तदपि अकारः एव भवति अतः यदि पश्यामः तत्र किमपि परिवर्तनं न अभवत् इति चिन्तयामः किन्तु परिवर्तनं जातम् अस्तु तत्र आनयत् इति भवति तत्र अत्रापि आह्वयम् इति रूपं भवति अस्तु अग्रे बाणचित्रि महोदय कृतवान् अस्तु गीताञ्जलि भगिनी वदति वा वयं वयं प्राप्नुमः
वयं प्राप्नुमः
तत्र उपसर्गः कः प्र इति उपसर्गः आप्नो आप्नोति इति आप्नुमः इति भवति
आप्नोति इति लट्लकार रूपम्
अथवा आप्नोमि इति आप्नोमि इति
अहम् आप्नोमि लङ्लकारे अहं
अहं प्राप्नुं तत्र अकारः भवति आप्नुं
प्रयोगः अयोगः आप्नुं आप्नोति इत्युक्ते अहं प्राप्नुम्
हा तत्र प्राप्नुम् तत्र किञ्चित् चिन्तयामि भगिनि प्राप्नोमि करोमि हा तत्र नरेश महोदय भवान् किं वदति तत्र
अहं चिन्तयामि प्राप्नोम् अप्नम् प्राप्नो अहं प्राप्नुम् आवां प्राप्नु वा
तत्र करवम् इति अस्ति भगिनि हा तत्र किञ्चित् अहं मम मनसि क्लेशः आसीत् तत्र किं भवति भगिनि तत्र प्र प्लस् आप्नुमः प्र इति तु प्रा इति प्र इति उपसर्गः अस्ति तत्तु सत्यम् अस्ति किन्तु तत्र किं भवति तत्र रूपम् अस्ति हा तत्र भयं प्राप्नुम इति तत् समीचीनम् अस्ति भगिनि हा भयं प्राप्नुम इति समीचीनम् अस्ति प्र प्लस् आप्नुम इति तत् समीचीनम् अस्ति किन्तु अपि आवां प्राप्नुव इति तदपि समीचीनम् अस्ति किन्तु एकवचने किं भवति तत्र लङ्लकाररूपं किम् अस्ति आप्नवम् इति भवति तत्र करोमि भवति करवम् इति तत् किञ्चित् विशेषः अस्ति हा अतः तत् आप्नवम् इति अस्ति अतः अहं प्राप्नवम् इति भवति रूपं तत्र हा तत्र आप्नोति इति क्रियापदस्य लङ्लकाररूपम् अस्ति आप्नोत् आप्नुताम् आप्नुवन् आप्नोः आप्नुतम् आप्नुत आप्नुम अतः तत्र वयं प्राप्नुम तत्तु समीचीनमस्ति किन्तु अहं प्राप्नवम् इति भवति भगिनि तत्र धातु अस्ति प्र प्लस् आप्न आप् इति धातु आप्नोति हा विशेषम् अस्ति हा तत् हा तत् किञ्चित् विशेषमेव अस्ति सत्यं भगिनि हा
अहं प्राप्नुवं वयं प्राप्नुम
आवां प्राप्नुव आवां प्राप्नुव वयं प्राप्नुम हा सत्यं भगिनि हा तादृश किञ्चित् भेदः विशेषरूपम् अस्ति तत्र
धन्यवादः महोदय
हा अस्तु अग्रे तत्र अस्तु अग्रे सन्ध्या भगिनी अग्रिमं प्रयत्नं करोति वा तत्र तत् कृत्वा यदि समयः अभवत् चेत् चिन्ता मास्तु भगिनि हा अस्तु
एकः प्रश्नः कुत्र भवान् एतानि रूपाणि
भगिनि तत् एतत्तु अष्टाध्यायी मध्ये अष्टाध्यायी धातु इति अस्ति
लङ्लकारे आपम्
न आप् इति पश्यतु आप् इति आप् धातुः
आपम्
न केवलम् आप् आप् धातुः
आप् धातु महोदय आप् धातु उभयपदी लङ्लकार
न आप् धातु स्वादिगणे अस्ति परस्मैपदी धातु अस्ति अस्तु भगिनि सन्ध्या भगिनि हा सन्ध्या वदतु भगिनि
ग्राहकः करोति
हा तत्र किम् उपसर्ग अस्ति वा
स्वी उपसर्ग अस्ति
हा इदानीं करोति इति किं भवति लङ् लकार रूपं
लङ् अकरोत्
अकरोत् इदानीं ग्राहकः स्वी प्लस् अकरोत् खलु स्व्यकरोत् कुरुत इति नास्ति करोत् करोत् स्व्य स्व्यकरोत् हा ग्राहकः
स्व्यकरोत्
द्विवचने
ग्राहकौ
स्व्यकुरुताम् इति प्रायः अस्ति
स्व्यकुरुताम्
स्व्यकुरुताम्
ग्राहकाः स्व्यकुरुतन्
स्व्यकुर्वन् स्व्यकुर्वन् इति प्रायः अस्ति किन्तु स्व्यकरोत् इति तावदेव अवश्यम् आसीत् भगिनि समीचीनम् अस्तु अस्तु अग्रे धन्यवादः भगिनि अस्तु गीताञ्जलि भगिनी प्राप्तवती वा आप् दातुः
अस्तु महोदय धन्यवादः महोदय
अस्तु 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 तत्र अग्रे सज्जनौ तिष्ठतः हरिमहोदय करोति वा तद्
सज्जनौ उत्तिष्ठतः सज्जनः उपसर्गः उपसर्ग क्रियापदम् उपसर्ग नास्ति चेत् तिष्ठतः
अतिष्ठत् इति एकवचने समीचीनम् इदानीं उ प्लस्
उ योगः
तत्र औ औ इति मन्ये समीचीनं महोदय सज्जनः औतिष्ठत् सज्जनौ
सज्जनः औतिष्ठत् सज्जनौ औतिष्ठत् औतिष्ठतां सज्जनाः औतिष्ठन्
समीचीनं भानुचेतनी महोदय भवानेव अग्रे वदतु महोदय
महोदय अभियन्तारः अङ्गीकुर्वन्ति अभियन्तारः अङ्गीकुर्वन्ति कुर्वन्ति
इति चिन्तयामि उपसर्ग अङ्गी प्लस् कुर्वन्ति लट्लकाररूपं तत्र उपसर्ग अङ्गी इति अस्ति उपसर्गरहितक्रियापदमस्ति कुर्वन्ति इति इदानीं
लङ्लकाररूपं बहुवचनं प्रथमपुरुषे एकवचनम् अकुर्वन् अङ्गी अकुर्वन् अङ्ग्यकुर्वन्
समीचीनं महोदय अङ्ग्यकुर्वन् अङ्ग्यकुर्वन् इदानीं पूर्णवाक्यं वदतु
अभियन्तारः अङ्ग्यकुर्वन्
अङ्ग्यकुर्वन् समीचीनम् इदानीम् एकवचने किं भवति
अभियन्ता महोदय
समीचीनं कीदृशपदमस्ति
धातारौ धातारः
ऋकारन्तपदं समीचीनं अभियन्ता
अङ्ग्यकरोत् अभियन्तारौ अभियन्तारौ अकुरुताम् अङ्ग्यकुरुताम्
समीचीनं महोदय बहु समीचीनम् अभियन्तारः अङ्ग्यकुर्वन्
अङ्ग्यकुर्वन्
हा बहु समीचीनमस्ति महोदय अस्तु हा अग्रे गीताञ्जलि भगिनि
आवाम् आगच्छावः उपसर्ग आ अस्ति महोदय अहम् आगच्छम् आवाम् आगच्छाव वयम् आगच्छाम
हा समीचीनम् हा तत्र अ एव उपसर्ग अस्ति इति कृत्वा तत्र परिवर्तनं बहु न भवति अस्तु हा अस्तु हा अस्तु अग्रे नरेश महोदय
महोदय शुनकः अनुसरति अनु उपसर्ग अस्ति उपसर्ग रहेत् सरति लङ्लकार असरत् उपसर्ग सहित अन्वसरत् शुनकः अन्वसरत् शुनकौ अन्वसरताम् शुनकाः अन्वसरन्
समीचीनमस्ति महोदय अस्तु रघुपति महोदय अग्रे
हा महोदय वयम् उपनयामः प्रथमम् उपयोग नयाम अस्तु अनयम् अनयाव अनयाम अहम् उपानयम् आवाम् उपानयाव उपानयाव वयम् उपानयाम
समीचीनं सः उप
सः उपयोग उपयोग अनयत् उपानयत् सः उपानयत्
यत्र यत्र उप अस्ति तत्र तत्र उपा इति दीर्घाकारः भवति
उपयोग उपा भवति
उपा इति भवति खलु
उपानयत् तौ उपानयताम् उपानयताम् ते उपानयन्
हा इति भवति समीचीनं महोदय अस्तु हा अग्रे हरि महोदय
अनुवादकाः अनुवदन्ति अनुवदन्ति अनु योग वदन्ति
अनु इति
उपसर्गः
वदन्ति इति किं भवति
वदन्
अवदन् अवदन्
अवदन् अवदन्
इदानीम् अनु प्लस्
अनु प्लस् अवदन् अनुवदन्
हा तत्र न महोदय तत्र किञ्चित् क्लेशः अस्ति किमर्थं चेत् तत्र वदन् इति अस्ति खलु अ प्लस् वदन् हा अ अकारस्य पूर्वम् अनु इति अस्ति तत्र नु प्लस्
प्लस्
तत् वकारः भवति तत् वकारः भवति अन्व अन्व अनु प्लस् अकारः अन्व इति भवति तदनन्तरं वदन् इति अस्ति अतः अन्व वदन् वकारः पूर्वमेव अस्ति पुरातनवकारः अस्ति नूतनवकारः अस्ति अनु प्लस् अकारः तत्र नूतनवकारः आगच्छति अन्व वदन् क्रियापदे एव वकारः अस्ति अतः अन्व वदन् इति भवति
अनुवादकः अनुवादकौ अन्ववदताम् अनुवादकाः अन्ववदन्
हा समीचीनम् अस्ति महोदय, हा बहु समीचीनम्. अस्तु अग्रे भानुचितनी महोदय.
आम् महोदय. अहं परिपालयामि नट्लकाररूपम् उत्तमं पुरुष एकवचनम्.
भानुचित्री महोदय पुनः आगच्छति इति मन्ये. अस्तु तस्मिन् समये सः तत् करोति. अन्य कोऽपि गीताञ्जलि भगिनी तत्र दुर्जनाः प्रहरन्ति इति तत् करोति, करोतु भगिनि.
दुर्जनाः
प्रहरन्ति. महोदय चिन्ता मास्तु, गीताञ्जलि भगिनी वदति, तदनन्तरं भवतः कार्यं भवान् एव करोतु. अस्तु
प्र उपसर्ग अस्ति. अहरन् दुर्जनाः प्राहरन्.
हा दुर्जनाः प्राहरन् एकवचने दुर्जनः
प्राहरत्.
हा समीचीनं भगिनि. हा अस्तु भानुचित्री महोदय इदानीं भवतः.
परिपालयामि तत्र पालय परियोग पालय परि उपसर्ग
अस्ति. पालयामि इति क्रियापदम् अस्ति. हा पालयामि किं भवति?
अपालयम् भवति. परियोग अपालयम् पर्यपालयम्.
हा समीचीनम्. अहं पर्यपालयम् इदानीं द्विवचने.
आवां पर्यपालयाव. वयं पर्यपालयाम.
हा समीचीनं महोदय. अस्तु हा अस्तु अन्तिमं रघुपति महोदय अन्तिमं करोति वा तत्र?
आम् महोदय. महिले निक्षिपत् अस्तु नियोग क्षिपति अतः अक्षिपत् अक्षिपताम् अक्षिपतन् अस्ति. नियोग न्या भवति अतः महिला न्यक्षिपत् महिले न्यक्षिपतां महिलाः न्यक्षिपतन्
न्यक्षिपन् समीचीनं महोदय. अस्तु हा इदानीं किम् अस्ति? हा हा नरेश महोदय अग्रिमं पठति वा तत्र?
महोदय उदाहरणार्थं लकारपरिवर्तनं करोतु. बालकः पुस्तकं पठति. बालकः पुस्तकम् अपठत्.
हा इदानीं नूतनतया किम् आगतं महोदय अत्र? किमर्थं नूतनभागः अस्ति तत्र?
पठति अपठत् नूतनः.
न प्रथमभागे किम् आसीत्? बालकः खादति.
कर्मपदम् अस्ति.
हा इदानीं कर्मपदम् अथवा प्रथमतया किम् आसीत्? लघुवाक्यम् आसीत् कर्तृपदं क्रियापदं. तदनन्तरं किम् आसीत्? कर्तृपदं क्रियापदमेव किन्तु क्रियापदे उपसर्गः अस्ति. इदानीं किम् अस्ति? कर्तृपदम् अस्ति क्रियापदमस्ति मध्ये कर्मपदं वा अन्यत् पदं किमपि अस्ति. हा इदानीं कर्मपदम् अस्ति. हा किन्तु कर्मपदम् अस्ति चेत् तस्य परिवर्तनं भवति वा लङ्लकाररूपं? हा तस्मिन् सन्दर्भे लङ्लकाररूपं यदा कुर्मः तत्र कर्मपदस्य परिवर्तनं न भवति, कर्तृपदस्य परिवर्तनमपि न भवति, केवलं क्रियापदस्य एव परिवर्तनं भवति. हा तदेव अंशः अत्र. हा अस्तु नरेश महोदय भवान् एव अग्रिमं करोतु महोदय.
बालकः पुस्तकम् अपठत्. बालकौ पुस्तकम् अपठताम्. बालकाः पुस्तकम् अपठन्. अहं भोजनं खादामि. अहं भोजनम् अखादम्. आवां भोजनम् अखादाव. वयं भोजनम् अखादाम.
हा समीचीनं महोदय. हा धन्यवादः. अस्तु अग्रे हरि महोदय.
भवन्तः श्लोकं वदन्ति.
तत्र
भवान् श्लोकम् अवदत्. भवन्तौ श्लोकम् अवदताम्. भवन्तः श्लोकम् अवदन्.
हा समीचीनं महोदय. हा अस्तु गीताञ्जलि भगिनी अग्रे.
आवां फलरसं पिबावः. आवां फलरसम् अपिबाव. नवरूपाणि महोदय.
न न भगिनि इदानीं मास्तु. हा केवलम् अहम् इति तावदेव. अहम् अपि वयं. हा
अस्तु. अहं फलरसम् अपिबम्. आवां फलरसम् अपिबाव. वयं फलरसम् अपिबाम.
हा इति अस्ति समीचीनं. हा अग्रे भानुचेतनी महोदय.
आं महोदय. कः बिन्दु
एते घटीं
पञ्चम. एते घटीं पश्यन्ति. एते घटीम् अपश्यन्
अपश्यन्. हा अस्तु इदानीं किं कुर्मः. केवलं यत् वाक्यमस्ति तस्य एव परिवर्तनं कुर्मः. नो चेत् बहु समयः भवति इति. हा अस्तु तावत् समीचीनं महोदय. अस्तु अग्रे रघुपति महोदय अग्रिमम्.
आम् महोदय. अध्यापकौ पाठं पाठयतः अस्ति. अस्तु अध्यापकौ पाठम् अपाठयताम्.
हा इति समीचीनं. हरि महोदय अग्रिमम्.
त्वं शाकं कर्तयसि. त्वं शाकं कर्तयसि अकर्तयताम्.
त्वं त्वम् इति अस्ति द्वि
अकर्तयतम्.
न वचनं किं त्वम् एकवचनम् अस्ति. मध्यमपुरुष
त्वं शाकम् अकर्तयः.
हा त्वं शाकम् अकर्तयः समीचीनं. गीतं
महोदय इत्युक्ते त्वं शाकं कर्तयसि
कर्तयति कट्
कट.
भगिनी भवती एव अग्रिमम्.
आं महोदय. वयं कार्यालयं गच्छामः. वयं कार्यालयम् अगच्छाम.
हा समीचीनम् अस्तु अग्रे नरेश महोदय.
युवां स्थालिकाः स्थापयत्थः. युवां स्थालिकाः अस्थापयत.
स्थापयतम् समीचीनं महोदय. अस्तु भानुचेतनी महोदय अग्रे.
सेवकौ रताः
सिञ्चतः.
सेवकौ लताः असिञ्चताम्.
असिञ्चतां समीचीनम्
असिञ्चतां
समीचीनं रघुपति महोदय
चोरं ताडयत् चोरं ताडयत् यूयं यूयं चोरम् अताडयत
यूयम् इति
यूयम् अताडयत
समीचीनं महोदय अताडयत अस्तु अग्रे हरि महोदय
चालकाः वाहनानि चालयन्ति चालकाः वाहनानि अचालयन्
अचालयन् समीचीनं हा गीताञ्जलि भगिनि
अहं वस्त्राणि क्षालयामि अहं वस्त्राणि अक्षालयम्
हा समीचीनम् अस्तु अग्रे नरेश महोदय
महोदय त्वं स्पर्धां स्पर्धां पश्यसि
स्पर्धाम् इति स्त्रीलिङ्गे
त्वं स्पर्धाम् अपश्यः
अपश्यः अपश्यः समीचीनं हा भानुचेतनी महोदय
निर्वाहकाः यात्रापत्रं यच्छन्ति निर्वाहकाः यात्रापत्रम् अयच्छन्
अयच्छन् समीचीनं हा रघुपति महोदय
एकनिमिषं महोदय चालक यच्छन्ति यूयं यूयं ओके यूयं प्रश्नान् पृच्छत यूयं प्रश्नान् अपृच्छतम् अपृच्छतम् एकनिमिषं यूयं यूयं अपृच्छत
ताडयत इति आसीत् तदेव अस्ति अत्र अपृच्छत्
बहुवचनमस्ति अस्तु अपृच्छत
अपृच्छत समीचीनम् अस्तु
महोदय तत्र यूयं मकारः अनुस्वारः भवितुम् अर्हति
वा सत्यं सत्यं तत्र यथा
पदान्ते
एकादश वाक्ये अस्ति तादृशरूपम् अत्र अपि भवितुम् अर्हति मकारः स्थापितुं सर्वदा स्थापितुं शक्नुमः किन्तु तत्र किं विसर्गः नास्ति अनुस्वारः केवलं यदि स्वरः नास्ति तस्मिन् सन्दर्भे एव स्थापयितुं शक्नुमः लेखितुं शक्नुमः हा अस्तु हा इदानीं किञ्चित् एव समयः अस्ति किन्तु आत्मनेपदिनः अपि किञ्चित् अभ्यासः भवतु अस्तु अग्रे गीताञ्जलि भगिनी अग्रिमं करोति वा
एतानि वाक्यानि पठतु कैकेयी दशरथं वरम् अयाचत कैकेयी दशरथं वरम्
याचते इति हा याचते हा अस्तु तत्र लङ्लकररूपं दत्तमस्ति लट्लकररूप आवश्यकमस्ति अग्रिमम् अग्रिमपुटे पश्यामः भगिनि हा पक्षी इति
उदाहरणानुगुणं लकारपरिवर्तनं करोतु आकाशे डयते पक्षी आकाशे अडयत गृहिणी वातायनात् वीक्षते गृहिणी वातायनात् अवीक्षत
हा इदानीम् आत्मनेपदे धातूनां प्रथमपुरुषे एकवचने तकारः भवति इति नास्ति अचलत् इति नास्ति अभाषत अवीक्षत इति अत्र भवति समीचीनं भगिनि अस्तु अग्रे हरिमहोदय
लतायां पुष्पाणि जायन्ते
इदानीं 83 पेज् 83 दृष्ट्वा वदतु तत्र भाषन्त इति अभाषन्त इति
महोदय लतायां लतायां पुष्पाणि जायन्ते लतायां लतायां पुष्पाणि अजायन्
हा इदानीं किम् अस्ति महोदय तत्र एतावत् वयं परस्मैपदी धातूनां लङ्लकाररूपं कृतवन्तः इदानीम् एतद् आत्मनिपदी धातुः अस्ति अतः यद् 83 मध्ये अस्ति अभाषत इति अभाषत अभाषेताम् अभाषन्त तद् आत्मनिपदी धातुः अस्ति आत्मनिपदी
धातुः अजायन्त
अजायन्त समीचीनं महोदय तत्र आत्मनेपद्य धातुः अस्ति तावदेव अस्तु अग्रे नरेश महोदय
अहं पितरं वन्दे अहं पितरम् अहं पितरं अवन्दे
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 भाषे अभाषे अबन्दे समीचीनं महोदय अस्तु भानुचित्रि महोदय अग्रिमं
वयं सिंहं दृष्ट्वा पलायामहे वयं सिंहं दृष्ट्वा पलायामहि
हा समीचीनं अस्तु अग्रे रघुपति महोदय
एकनिमिषं महोदय अहं वयं दरिद्रः ओके दरिद्रः कष्टं सहन्ते दरिद्राः कष्टं सहन्ते दरिद्राः कष्टम् असहन्त
असहन्त इति अस्ति अस्तु तत्र समयः जातः किन्तु किञ्चित् परिशिष्टम् अस्ति अग्रिमवर्गे एतत् कुर्मः किञ्चित् गृहपाठरूपेण कुर्मः तदनन्तरं यत् अन्यत् अस्ति तस्मिन् अध्याये तत् कृत्वा तद् अग्रिमवर्गे भवति अस्तु इदानीं समयः जातः प्रश्नः अस्ति वा अस्तु अस्तु
स्मरणे न भवति
अस्तु 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 अग्रिमवर्गे मिलामः सर्वेभ्यो नमः नमस्कारः
धन्यवादः
नमस्कारः